एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः संघीय संसदः प्रतिनिधिसभाया राष्ट्रियसभायाश्च उपवेशः अद्य उपविश्यमानो वर्तते। अद्य पूर्वाह्नस्य एकादशवादने उपवेक्ष्यमाणे प्रतिनिधिसभायाः उपवेशे प्रधानमन्त्रिणा केपी शर्मा ओलिना सर्वकारस्य आगामिनः आर्थिक वर्षस्य कृते प्रस्तावितानां नीति कार्यक्रमाणां विमर्शनस्य क्रमे उत्थापितानां प्रश्नानाम् उत्तरः प्रदास्यते। उत्तरप्रदानानन्तरम् अद्यैव सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः निर्णयार्थम् उपवेशे प्रस्तोष्यन्ते च। प्रधानमन्त्री केपी शर्मा ओली कथयति वैज्ञानिक वन व्यवस्थापनस्य नाम्नि सालवृक्षाणां कर्तनस्य क्रम कठोरेण अवरोध्यते। वन वातावरण मन्त्रालयेन पूर्वे द्युः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली नेपालस्य सालवृक्ष वनम् विश्वस्मिन् विश्वे अनुपमम् उदाहरणमस्ति, वृष्टेः वर्षणाय एवं विधानां वृक्षाणां विशेषेण महत्वं च भवति, त्यतः समयात् पूर्वम् एवं विधाः सालवृक्षाः व्यावसायिक उपयोगे न आनेयाः इति च प्रावोचत। तदवसरे प्रधानमन्त्री ओली वनानां सबलीकरणाय प्रत्येकं वनस्य सघन वने रूपान्तरणाय च बलं प्रादात्। सभामुख देवराज घिमिरे भाषते देशस्य वर्तमानावस्थाया विषये राजनीतिकैः उचितरूपेण विश्लेषणस्य समयः आगतो वर्तते। पूर्व सांसद मञ्च नेपालेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभामुख घिमिरे वर्तमान शासन प्रणाल्याः विरुद्धे कुप्रचारो जायमानोऽस्तीत्यतः समुचित चिन्तनस्य विश्लेषणस्य च प्रवृत्तेः विकासाय बलं प्रादात्। समीचीनेन विश्लेषणेन देशस्य अवस्थायाः अन्वेषणेन सह अग्रे वर्धमानेभ्य विभिन्न क्षेत्रेभ्यः व्यक्तिभ्यश्च सहयोगार्थं राजनीतिकर्मिणः सभामुख घिमिरे तदवसरे अन्वरुणत्। ऊनसप्तत्युत्तर पञ्चविंशति शततमः बुद्ध जयन्ती समारोह लुम्बिनी दिवसश्च। अद्यतः दिनत्रयं यावत् लुम्बिन्यां विशेष शोत्सवरूपेण समायोज्यमानो वर्तते। लुम्बिनी विकास कोषेण ह्य लुम्बिन्यां पत्रकार सम्मेलनम् आयोज्य बुद्धस्य जन्मनः बोधिज्ञान प्राप्तेः महापरिनिर्माणस्य च पावनावसरे वैशाख पूर्णिमायां विशेषः समारोह आयोक्ष्यते इति प्रचार प्रसार समितेः संयोजक ढुण्डीराज भट्टराई अज्ञापयत्। अद्य सायं मायादेवी मन्दिर परिसरे अहोरात्रः महापरि त्राणपाठो विधीयते। स्वप्रातः षड्वादनात् भिक्षुणां लामा गुरूणाम् अन्येषाम् उपासकानां च सहभागितायां प्रार्थना सभा आयोक्ष्यते। प्रातः सार्ध सप्तवादने शोभायात्रा भविष्यति इति च पत्रकार सम्मेलने सूचितमस्ति। एवमेव वैशाख मासस्य त्रिंशे दिवसे बोधिसत्वस्य सिद्धार्थस्य शोभायात्रा आयोक्ष्यते इति लुम्बिनी विकास कोषेण ज्ञापितमस्ति। बागलुङ जनपदस्य बडीगाड ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य भीमगिरे स्थानम् नवमवडा क्षेत्रस्य मालारानी स्थानम् च योजकः यातायात साधनोपयोगिनः सेतोः निर्माणम् सम्पन्नमस्ति। सेतोः सञ्चालनानन्तरम् राष्ट्रिय गौरवस्य आयोजनातः मध्यपर्वतीय राजमार्गात् मालारानी सहितेषु राजकोट प्युठान गुल्मी स्थानेषु च गमनागमनाय सहजम् सम्भूतमस्ति। सप्तकोटीनाम् 67 लक्षाणां च रूप्यकाणां व्ययेन सेतोः निर्माण कार्यम् सम्भूतमस्तीति मारखण्डा योजनया ज्ञापितम् वर्तते। अस्मिन् वर्षे वसन्तर्तौ सगरमाथा शिखरस्य आरोहणक्रमः प्रारब्धोऽस्ति। सगरमाथा शिखरम् यावत् प्राप्तेः मार्गस्य निर्माणेन सहैव औपचारिकरूपेण आरोहणम् प्रारब्धमस्तीति पर्यटन विभागेन ज्ञापितम् वर्तते। विभागस्य निर्देशकः लीलाधर अवस्थी सगरमाथा शिखरम् यावत् रज्जु योजकस्य योजनस्य कार्यम् समाप्तेः अनुपदमेव कार्यस्य समाप्तेः अनुपदमेव अस्य वर्षस्य सगरमाथा शिखरस्य औपचारिकम् आरोहणम् प्रारब्धमस्ति। पर्यटन विभागस्य पर्वतारोहण शाखाया तथ्याङ्कानामनुसारेण अधुनावधि चतुश्चत्वारिंशतः आरोही समूहानाम् एकविंशत्यधिक शतचतुष्टयेन जनैः सगरमाथा शिखरस्य आरोहणाय अनुमति गृहीता वर्तते। उपराष्ट्रपति रामसाय प्रसाद यादव भाषते जलवायु परिवर्तनम् वर्तमान समयस्य सर्वाधिक गभीर संकटो वर्तते। नेपाल प्रेस यूनियन संघस्य केन्द्रीय समित्या ललितपुरे ह आयोजिते लोमान्थाङ अन्तर्राष्ट्रिय संचार सम्मेलने उपराष्ट्रपति यादव जलवायु परिवर्तनस्य कारणेन उत्पन्नस्य संकटस्य नियन्त्रणाय समाजे सञ्चेतनायाः प्रसारणस्य च संचार जगता प्रभावकारी भूमिका निर्वहणीयति प्रत्यपादयत। कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ आतंकवाद अराजकता निरंकुश राजतन्त्रञ्च संचार स्वतन्त्रताया शत्रव सन्तीति उदैरयत। तदवसरे मन्त्री गुरूङ विदेह शासनस्य स्थापनायै निष्पक्ष पत्रकारितायां बलं प्रादात। मीडिया काउन्सिल विधेयके स्वनियमनस्य परिधौ अनलाइन प्रणालीम् आनेतुम् प्रबन्धनम् विधीयमानमस्ति इति च संचार मन्त्री असूचयत। कार्यक्रमे परराष्ट्र मन्त्री डा आरजू राणा देवा प्रेस स्वतन्त्रतातः लोकतन्त्रस्य सुदृढीकरणाच्च समाजे अनुकूल प्रभाव सृज्यते तेन देशः उन्नतिर्मार्गे अग्रेसरश्च भवतीति अवोचत। बाँकी जनपदस्य राप्ती नदी पारे अवस्थित नरेनापुर ग्रामपालिका मूल राजमार्गस्य सञ्चालनानन्तरं सुगमा सम्भूतास्ति। आसन्न त्रयोविंशतेः वर्षेभ्यः पूर्वं मार्ग निर्माणस्य कार्यस्य प्रारम्भेऽपि भूयो भूय अवरोधानन्तरं नरेनापुर ग्रामपालिकातः नेपालगंज नगरं यावत् चतुश्चत्वारिंशत् किलोमीटर मितस्य मार्गस्य निर्माणस्य समाप्ते तरम् गमनागमनाय सरलता सम्भूतास्ति। मूल राजमार्गस्य निर्माणानन्तरं नरेनापुरवासीनां स्वास्थ्य शिक्षा क्षेत्रयोः सहजतया प्रवेश सम्भूतोऽस्ति। नरेनापुर ग्रामपालिकायाः अध्यक्ष इस्तियाक अहमद शाह मूल राजमार्गस्य निर्माणानन्तरं नरेनापुर वास्तव्यानां जीवने परिवर्तनं सम्भूतम् अस्ति इति अवोचत। दार्चुला जनपदस्य उत्तर दिशः टिंकर स्थानस्य जनाः शरणां मासानां पश्चात् ग्रामे प्रत्यावृताः वर्तन्ते। गत मार्गशीर्ष मासे शैत्यात् आत्मानं रक्षितुं ग्रामं त्यक्त्वा खलंगा स्थानं प्रति आगताः सप्तति गृहपरिवाराः पुनः स्वग्रामं प्रति गताः सन्ति। षड् दिनानि यात्रां कृत्वा सम्प्रति समेषां ग्राम प्रापणस्य पश्चात् ग्रामे जनानां सक्रियता वर्धिता वर्तते। इति समाचाराः।